ఏనాక్షర సమాం నాయం అధిగమ్యమహేశ్వర కృష్ణం వ్యాకరణం ప్రోక్తం తస్మై పాణిన ఏ నమః వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం మునిత్రయం నమస్కృత్య తదుపరిభాగ్య వైయాకరణ సిద్ధాంత కౌముదీయం వివచ్యతే. సర్వేభ్య నమస్కారాః. అద్య సిద్ధాంత కౌముద్యాః కారక ప్రకరణే చతుర్థీ విభక్తి ప్రకరణం ఆరబ్ధవ్యం. ततः पूर्वं तृतीयाविभक्तेः विषये केचन काचन चर्चा अवशिष्टा अस्ति. एषु वाक्येषु कथं तृतीयाविभक्तिः इति किञ्चित् चर्चा करणीया. ततोपि पूर्वं केचन प्रश्नाः आगतास्सन्ति, ईमेल् द्वारा प्रेषिताः. तेषाम् उत्तराणि उक्त्वा ततः पाठस्य आरम्भं करोमि. प्रथम प्रश्न तृतीय सूत्रम वेदशब्द विषय अस्त प्रश्न. विभक्ति प्रकरण अनभिहिते कर्मण द्वितीय तृतीय छंदसी तृतीय सूत्र सत्यम छंदसी सूत्रे पाणी छंदसी वदती तत्सव वैदिक शब्दानां विषय अर्थात वेदे तादृशः प्रयोगः. यत्र तादृशानि सूत्राणि सन्ति शुद्धतया वेद संबद्धानि तानि दीक्षितैः प्रायेण मुख्यप्रकरणे न दीयन्ते. सिद्धान्तकौमुद्याः अन्ते वैदिकप्रकरणं स्वरवैदिकीप्रक्रिया इत्यस्ति, तत्र दीयन्ते. कदाचित् तु मध्येऽपि दीयन्ते. लिखितः हेज़् नाट् मेण्टेन् अ वेरि स्ट्रिक्ट् डिस्टिङ्क्षन् बिट्वीन् वेदिक सूत्रस् अण्ड् लौकिक सूत्र. सो usually if it is a purely Vedic sutra, he has shifted them to the Vaidika prakarana. But sometimes you also see some sutras which are related to Vedas. If they are in the flow of the prakarana, he gives them along with the main sutra. And sometimes he deals with them in the Vaidika prakarana. That is why in Karaka prakarana we do not see this sutra, because it is a purely Vaidika sutra. He is dealt with it in the Vaidika prakarana. द्वितीयं गतिबुद्धिसूत्रस्य विषये. तत्रापि दृशधातोः विषये प्रश्नः. निदन्तप्रयोगाः सर्वदा उभयपदिनः भवन्ति, अर्थात् परस्मैपदेऽपि प्रयोगः भवति, आत्मनेपदेऽपि प्रयोगः प्रायेण. यदा सर्वेषां धातूनां हेतुमण्डित् प्रेरणार्थक निच् प्रत्ययः भवति, तदा प्रायेण उभयपदिप्रयोगः भवति. अर्थात् परस्मैपदेऽपि प्रयोगः, आत्मनेपदेऽपि प्रयोगः. उभयथापि गतिबुद्धि इति सूत्रेण कर्मत्वं भवति, अर्थात् यज्ञदत्तः देवदत्तं गमयति गमयते इति उभयत्र भवति. दृशधातोः विषये कथम् इति प्रश्नः. वार्तिकद्वयं विद्यते. दृशेश्च इति वार्तिकेन कर्तुः कर्मत्वं विधीयते. अभिवाद्यदृशो आत्मनेपदे च इत्यनेन पुनः आत्मनेपदे कर्मत्वं विधीयते. कथं विभागः इति पूर्वमपि दृष्टम्. एतत् दृशेश्च इति वार्तिकेन सामान्येन विधीयते. परस्मैपदे वा आत्मनेपदे वा इति भेदः न कल्प्यते तेन वार्तिकेन. औत्सर्गिकतया कर्मत्वं नित्यमेव भवति इति उच्यते. अभिवादिदृशो आत्मनेपदे वा इत्यनेन तु आत्मनेपदप्रयोगे विकल्पेन कर्मत्वम् इति उच्यते. तेन किं फलति इति चेत् आत्मनेपदे विकल्पेन प्रयोगः. भक्तैः हरिं दर्शयति, भक्तैः हरिं दर्शयते, भक्तान् हरिं दर्शयते इति वैकल्पिक प्रयोगः आत्मनेपदे. परस्मैपदे तु नित्यमेव कर्मत्वं भक्तान् हरिं दर्शयति इति व्यवस्था. परस्मैपद विशेष्ट इति वार्तिकेन नित्यमेव कर्मत्वं भवति अणिकर्तुः नौ. आत्मनेपदं चेत् अणिकर्तुः नौ विकल्पेन कर्मत्वं भवति. तृतीयप्रश्नः. सारथिः वाहान् रथं ग्रामं क्रोशं वाहयति इति प्रयोगः किं साधुः इति प्रश्नः. वाहान् रथं वाहयति इत्यस्ति वहधातोः वहधातुः उभयपदि. मुख्यं कर्म भवति रथं वहति, रथं वाहयति इत्येव. वाहैः रथं वाहयति इति प्राप्तव्ये नीवस्योर्न इति निषेधे अनियन्त्रकर्तृकस्य महेः प्रतिषेधः इति उक्तत्वात् वाहान् रथं वाहयति इति भवति. ग्रामम् इत्यस्य अकथितकर्मत्वम् ग्रामे इति अधिकरणत्वस्य अभिवक्षायाम् अकथितञ्च इत्यनेन कर्मत्वे वाहान् रथं ग्रामं वाहयति इति भवति. वाहान् इत्यस्य गतिबुद्धि इति सूत्रेण कर्मत्वम्, रथमित्यस्य कर्तरिप्रियतमं कर्म इति कर्मत्वम्, ग्रामशब्दस्य अकथितञ्च इति कर्मत्वम्, क्रोशशब्दस्य पराध्वनोरत्यन्तसंयोगे इति सूत्रेण कर्मत्वम्, तथा सति अयं प्रयोगः शुद्धः वा इति प्रश्नः. सारथिः वाहान् रथं ग्रामं क्रोशं वाहयति. थियोरेटिकलि शुद्धे एव, तत्र सत्यं क्रोशशब्दस्य कराधनोरत्यन्तसंयोगे इति सूत्रेण द्वितीयासक्तिः भवितुम् अर्हति, किन्तु तत्र विवक्षा का अथवा प्रयोगस्य औचित्यं किम् इति वक्त्रा चिन्तनीयम्. थियोरेटिकलि केन् ब्रिङ्ग् अप् आल् सार्ट्स् आफ् प्रयोग, बट् वाट् इस् द विवक्षा, अत्यन्तसंयोगस्य किम् अत्र अत्यन्तसंयोगेन किं विवक्ष्यते. उदाहरणार्थं क्रोशमधीते इति यदि प्रयोगः अस्ति, सततं कालस्य अत्यन्तसंयोगेन अथवा मार्गस्य अध्वनः अत्यन्तसंयोगेन अध्ययनं करोति इत्यत्र विवक्षायां किञ्चन तात्पर्यं भवति. इस् अ रीज़न् वै दट् प्रयोग उद्यु मेड्. बट् वेन् यु आर् रैडिङ्ग् अ चारियट्, इट् हेस् टु बि आब्वियस्ली टेकन् थ्रू औट् द क्रोश. इफ् यु आर् रैडिङ्ग् अ चारियट् थ्रू द क्रोश, अत्यन्तसंयोगः भवत्येव. तत्र विशेष्य अत्यन्तसंयोगस्य किं तात्पर्यम् इति चिन्तनीयम् विवक्षायाम् इत्युक्ते वाट् इस् द पर्पस् आफ् यूसिङ्ग् एन् अत्यन्तसंयोग. ड्रैविङ्ग् संथिङ्ग् थ्रू से अ मैल्, अत्यन्तसंयोग इस् आब्वियस् अन्लेस् आफ् कोर्स् यु ड्रैव् हाफ् अ मैल् एण्ड् स्टाप्. विवक्षा अस्ति चेत् प्रयोगः साधु, तत्र चिन्ता नास्ति. किं कीदृशी विवक्षा इति चिन्तनीयं तावदेव प्रयोगे. अग्रिमः प्रश्नः अपवर्गे तृतीया इत्यत्र कालाध्वनोः अत्यन्तसंयोगः क्रियाविषये एव भवति किल इति. कालाध्वनोरत्यन्तसंयोग इति सूत्रे त्रेध अत्यन्तसंयोगः दृष्टः, क्रेया अत्यन्तसंयोगः, गुणेन अत्यन्तसंयोगः, द्रव्येण च अत्यन्तसंयोगः इति. अपवर्गे तृतीया इत्यत्र तु क्रियया सह अत्यन्तसंयोगस्यैव भवति, यतोहि अपवर्गः फलप्राप्तिः इति उक्तम्. फलप्राप्तिः इत्येतत् क्रियायाः एव भवितुमर्हति इत्यतः क्रियाविषये एव अपवर्गे तृतीया इति. द्रव्यस्य गुणस्य वा अत्यन्तसंयोगे अपवर्गे तृतीया इति भवितुं नार्हति इति सत्यम्. क्वेश्चन् अबौट् दीस् ओके टु आस्क् नौ, ऐम् जस्ट् ट्रैङ्ग् टु गो थ्रू द क्वेश्चन्स् अण्ड् आन्सर् देम्. यदि किमपि नावगम्यते अथवा पुनः स्पष्टीकरणम् अपेक्ष्यते पृच्छताम्. You can ask questions at any stage, don't hesitate. अग्रिमः प्रश्नः आत्मनेपदीनां धातूनामपि निष्प्रत्ययान्ताः उभयपदिनः भवन्ति वा इति. सत्यं, सर्वेषां धातूनां निगन्तप्रयोगे विकल्पेन आत्मनेपदित्वं भवति इत्युक्ते उभयपदित्वं भवति, परस्मैपदिप्रयोगाः अपि भवन्ति. रिगार्ड्लेस् आफ् वेदर् द धातु ओरिजिनलि वास् अ परस्मैपदि आर् एन् आत्मनेपदि, प्रेरणार्थकनिदन्तप्रयोगे उभयपदित्वं सम्भवति. यथा पठति इत्यस्य पाठयति पाठयते इति भवति, तथैव वन्दते इत्यस्य वन्दयति वन्दयते इति भवति प्रयोगः. अपरञ्च अभिहित अभिधानविषये, करणस्य अभिधानविषये प्रश्नः. स्नानीयं चूर्णम् इति उदाहरणं दत्तं, तथैव जीवनं जलम् इत्यपि उदाहरणं दत्तम्. यत्र अनभिहिते करणे तृतीया इति उक्तं, कुत्र करणस्य अभिहितत्वम् इति प्रश्नः. We are saying when the karana is anabhihita, then only you get tritiya. What are the examples of cases where it is abhihita? Tadatu udaharana dvayam dattam, snaniyam churnam katha jivanam janam iti. Snaniyam churnam ityatra aniyar patyaha karana arthe asti. अतः प्रथमा भवति चूर्णेन स्नानीयम् इति न भवति, चूर्णम् स्नानीयम् भवति. जीवनम् जलम् इत्यत्र ल्युट् प्रत्ययः न तु अन्यत्. जीवन्ति अनेन इति अर्थे करणार्थे ल्युट् प्रत्ययः. इट् इस् नाट् जस्ट् अन्यर् विच् केन् मीन् सेन्स् आफ् करण. अत्र ल्युट् इति प्रत्ययः सः करणार्थे अस्ति. अतः जलेन जीवनम् इति न भवति, जलमेव जीवनम् इति उच्यते. अन्तिमः प्रश्नः, प्रायेण याज्ञिकः इति विषये वस्तुतः मया द्रष्टव्यम्. लक्षणे द्वितीया इति भवताम् एम् ए पुस्तके अस्ति इति चिन्तयामि, तत्रैव पठितमिति. प्रायेण याज्ञिकः इति द्वितीया स्यात्. यदि प्रकृत्यादिभ्य उपसङ्ख्यानम् इत्यत्र तस्य परिणामानां न स्यात् तर्हि द्वितीया शक्तिः भवेत् इति. कथं द्वितीया इति मया द्रष्टव्यम्. वाट् वुड् हेपन् इफ् प्रकृत्यादिभ्य उपसङ्ख्यानं डिड् नाट् इन्क्लूड् द प्रायेण. अपरेण्टलि द बुक् इस् द्वितीया बिकास् आफ् लक्षण, बट् तत्र कथं समन्वयः इति अहं दृष्ट्वा वदामि. सुखे सुखं याति दुःखं याति इत्यत्र तु और् सुखेन याति दुःखेन याति इत्यादिषु क्रियाविशेषणम् इति उच्यते. इट्स् एन् एब्जेक्टिव् टु क्रिया. सुखेन याति दुःखेन याति इत्यादिषु क्रियाविशेषणानां कर्मत्वं क्लीबता च इति सूत्रमस्ति. श्रेणी क्रियाविशेषण इस् ट्रीटेड् एस् कर्म एण्ड् देयरफोर् इट् इस् द्वितीया. एक्साम्पल् शीघ्रं गच्छति, शीघ्रं लिखति. In all these cases, shikha is called a kriya visheshana. It is an adjective to the verb. It's an adverb, basically. Samskrute tatha nasti bhedaha visheshanam ityeva kriya visheshanam iti uchyate. Kriya yaha yad visheshanam. Tasya karmatvam krivatata iti vartikam asti. Kena karma samya bhavati ditya ayabhakti ki prapta. Ata yeva shidham gachyati. Sushtu likhati itya rishu bhavati. Sukha dukha yor visheshe prakutya adibhya upasanshanam ityanena tritya ayabhakti hi. सुखेन याति दुःखेन याति इति भवति. प्रायेण याज्ञिकः इति विषये अहं दृष्ट्वा वदामि. सूत्रं नास्ति, तत् वार्तिकमस्ति. क्रियाविशेषणानां कर्मत्वं क्लीवता च इति वार्तिकस्य संख्याम् अहं न जानामि. तस्मिन् सूत्रे इत्यपि मया न ज्ञायते. ऐ डोण्ट् नो विच् इट्स् इट् इस् वार्तिक. Any other questions? Are there any questions pending from previous classes or anything? So, this is Pichata. तत्र तृतीयभक्तेः विषये अनुसरामः. एषु वाक्येषु कथं तृतीयभक्तिः इति चर्चा आसीत् अध्ये त्यक्तं गतवर्गे. ऐ थिङ्क् इन् लास्ट् क्लास् मै कम्प्यूटर् गाट् हेङ्ग्ड् एण्ड् ऐ कुड् नाट् एण्ड् द क्लास् प्रापर्लि, बट् द एण्डिङ्ग् स्टेजेस् ऐ जस्ट् लेफ्ट् इट् देयर्. अस्तु, पुनः आरम्भेण कुर्मः. अहं लोकयानेन आगच्छामि. कथं तृतीया, किं निमित्तं तृतीया? केचन कानिचन वाक्यानि दृष्टानि गतवर्गे इति चिन्तयामि. क्विक् रीक्याप्. अहं लोकयानेन आगच्छामि. कथं तृतीया? करणत्वप्रयुक्तं कर्तकरणयोः तृतीया इत्यनेन तृतीया विभक्तिः. विमानेन पञ्चवादने आगमिष्यते. विमानशब्दस्य कथं तृतीया? संतोष का प्रयुक्त पीपल स्टिल स्लीपिंग I have already done this last class, so the answer should be quicker. So, Kartatva Prayukta, Kartakaranaya Sputiyaja, Tatiyaya Bhakti, Kartasavarge, Etadrishtam, Vimanam Panchavadane Agamishyati, Iti Vivaksha, Kartari Prayoge, Karmani Prayoge, Vimanena Panchavadane Agamishyate. ఇది విమానం కర్త కర్తృత్వ ప్రయత్న తృతీయ విభక్తి అనభిహితత్వాత్ సహ వామపాదేన పొంగు వామపాదేన పొంగు సఖం తృతీయ వామపాద శబ్దస్య శ్రూయతే వా వామపాదేన పంగుః కథం తృతీయా ఏన అంగవికారః ఇత్యనేన అంగవికారః శరీర అంగినః వికారేభ్యోచ్యతే అంగస్య తృతీయా విభక్తిః భవతి ఇత్యనేన తృతీయా ఏన వామపాదేన పంగుః రామేణ సీతా అయోధ్యా నీతా అత్ర స్థలితా పశ్య రామేణ సీతా వనం గత ఇది ప్రయోగద్వయం విద్యతే ఉభయత్రాపి రామశబ్దస్య తృతీయా విభక్తి అస్తి కిం నిమిత్తం కుత్ర కిం నిమిత్తం కథం ఇది వస్తుంది కథం తృతీయా కరణత్వం కర్తా కర్మణి రామేణ సీత అయోధ్యా నీతా తత్ర కథం తృతీయా కరణత్వం ఇది ఏకం ఉత్తరం ఆగతం కర్తృత్వం ఇది ఏకం ఉత్తరం ఆగతం అన్యత్ కిమపి ఉత్తరం అస్తి వా ఎని అదర్ ఆప్షన్ కర్మణి కర్మణి తృతీయా విభక్తే అవసర నాస్తి కర్మణి తృతీయా న భవతి కర్తరి భవతి కరణే భవతి సహార్థే భవతి రామః సీతాం అయోధ్యాం నీతవాన్ ఇది కర్తరి ప్రయోగః రామేణ సీతా అయోధ్యాం నీతా ఇది కర్మణి ప్రయోగః సత్యం ఇక్కడ రామస్య కర్తృత్వం కర్తృత్వ ప్రయుక్త తృతీయా విభక్తిః రామః సీతాం అయోధ్యాం నయతి ఇత్యర్థః రామః నయతి నయన క్రియాయాం రామః కర్తా రామః సీతాం అయోధ్యాం నయతి ఇత్యత్ర ఈ ధాతువు వికర్మకః అకథితంత ఇత్యనేన అయోధ్యాయాః అపి కర్మత్వం సంభవతి తదస్తు ఇదానీం తృతీయాయ భక్తిస్తు కర్తృత్వ ప్రయుక్త రామః కర్తా సో రామ ఇస్ ద కర్తృపద ఫర్ నయన టేకింగ్ రామ టేక్స్ అయోధ్య టు సీత టేక్స్ సీత టు అయోధ్య అతః రామస్య కర్తృత్వాత్ కర్తృత్వ ప్రయుక్త తృతీయా విభక్తిః రామేణ రామేణ సీతా వనం గత అత్ర సత్యం అత్ర సహిత్యే అప్రధానే ఇత్యనేన తృతీయా విభక్తిః యతో హి గమనక్రియాయాం సీతా కర్త్రి See, this is a Kartari Tapasaya. Sita Gata. Sita Kartri. Sita is the Pradhana Kartri here. Apradhana Ramaha. Ramena Saha Sita Manam Gata. It is Saha. Sahartanam Prayoge Asatyati Tadarthe Gamyamane Sutiya Bhavati. It is Saha. Sahitya Pradhane Itchenena Rama Shabdasya Sutiya Bhavati. So to be careful, you have to look at the Kriya. That is why you cannot decide any విభక్తి కారక నిమిత్త విథౌట్ హ్యావింగ్ ద క్రియా క్రియాం వినా కిం కారకం కా విభక్తి కిమర్థం కా విభక్తి ఇది వక్తుం న శక్యతే ఉభయత్ర తథైవ అస్తి రామేణ సీతా అయోధ్యాం ఇత్యస్య వనమేవ అస్తు రామేణ సీతా వనం నీత रामेण सीता वनं गता इति यदि प्रयोगद्वयम् अस्ति कथं निर्णयः इति चेत् क्रियायाः आधारेण एव निर्णयः भवितुम् अर्हति अन्यथा अहं त्रिभिः मासैः कारकप्रकरणम् अधीये सत्यं सः इति पदस्य प्रयोगः नास्ति चेदपि वाक्ये तृतीया भवति तदेव दृष्टं विनापि तद्योगं तृतीया इति सः युक्ते अप्रधाने सहार्थे गम्यमाने तृतीया भवति त्रिभिः मासैः कारकप्रकरणम् अधीये अपवर्गे तृतीया इति तृतीया फलप्राप्तिः भवेत् इत्याशया त्रिभिः मासैः यदि फलप्राप्तिः न भवति किं प्रयोग कः प्रयोगः स्यात् इति माने एक्चुअलि अण्डर्स्टाण्ड् अण्ड् मास्टर् कारकप्रकरणम् त्री मन्त्स् इत्युक्ते त्रिभिः मासैः कारकप्रकरणम् अधीये यदि फलप्राप्तिः न भवति कः प्रयोगः कीदृशः प्रयोगः स्यात् द्वितीया विभक्तिः कालाद्धनोरत्यन्तसंयोगे कालस्य अत्यन्तसंयोगे इत्यनेन अर्थात् यदा यदा निश्चितं त्रिषु मासेषु निश्चितवेलायां निरन्तरम् अधीयते इति भवति किन्तु प्रयोगः कः भवति द्वितीया विभक्तिः सत्यं वाक्यं किम् cannot even to see the whiteboard. This may take some time to load. Meanwhile, you can use the presentation you take in. Masatrayam iti sulabham. Samasaha kratah. Trayanam masanam. Samase akrute. Exact one. Trivihi masa iti ityasthi. Tatra vidya evaktav kim rupam. Iti mama prasnasya asyaha kaha. अहं त्रिभिः मासैः कारकप्रकरणम् अधीये इत्यस्ति अत्र यदि फल अपवर्गे तृतीया इत्यनेन फलप्राप्तौ सत्यां तृतीया विभक्तिः भवति त्रिशब्दस्य मासशब्दस्य च अपवर्गे असति फलप्राप्तौ असति द्वितीया विभक्तिः भवेत् इति उक्तं कालाध्वनौ अत्यन्तसंयोगे द्वितीया विभक्तौ सत्यां किं रूपं कथं प्रयोगः अहं डाश् डाश् कारकप्रकरणम् अधीये त्रीन् मासम् इति एकम् उत्तरम् आयातं समीचीनं वा कन्वर्ट् मासैः सुद्वितीया सिम्पल् अस्ति त्रीन् मासान् अहं त्रीन् मासान् कारकप्रकरणम् अधीये रूपं त्रीन् इति सत्यं मासाम् इत्यपि बहुवचने भवेत् अस्तु पुस्तकेन छात्रः कथं तृतीया इत्थम्भूतः इत्यर्थे जटाभिस्तापसः इतिवत् पुस्तकेन छात्रः पुस्तकं दृष्ट्वा सः छात्रः इति ज्ञायते इत्यर्थः शकुनिः कपटैः अक्षैः अधीर्यत् जीवकर्म च इत्यनेन कपटानक्षानदीर्यते इत्यपि भवति अत्र तु कपटैः अक्षैः इत्यत्र साधकतमं करणम् इत्येव करणत्वं जीवकर्म च इत्यनेन कर्मत्वमपि इति उच्यते सत्यं किन्तु करणत्वं करणत्वप्रतियुक्ता करणे कर्तृकरणयोः तृतीया विभक्तिः कथम् इति प्रश्ने कर्तृकरणयोः तृतीया करणत्वं निमित्तीकृत्य कर्तृकरणयोः तृतीया इत्येव उत्तरम् यदि कपटान् अक्षान् अधीर्यत् इति अस्ति तदैव विशेषः एक्चुलि द अक्ष आर् इन्स्ट्रुमेण्ट् यस्मात् साधकतरणम् करणम् इत्यनेनैव करणत्वम् सिद्ध्यति तृतीया विभक्तिरपि सिद्ध्यति यत्र द्वितीया विभक्तेः प्रयोगः तत्रैव विशेषः तत्र दिवः कर्म च इति कर्मत्वम् तत्र युक्ता द्वितीया विभक्तिः विद्यया ज्ञानम् वर्धते हेतौ तृतीया सत्यम् विद्या हेतु फॉर ज्ञानस्य वर्धनम् ज्ञानस्य वर्धने विद्या हेतुः हेतुत्वात् तृतीया विभक्तिः अलम् विस्तरेण गम्यमानापि क्रियाकारकविभक्तौ प्रयोजिका इति सत्यम् किन्तु तृतीया विभक्तिः कथम् केन सूत्रेण तृतीया इति पृष्टे किमुत्तरम् तृतीया विभक्तिः केन सूत्रेण इति प्रश्नः साधकतमं करणम् इति सूत्रेण विभक्तिः नोच्यते अनभिहिते इति सूत्रेणापि विभक्तिः न उच्यते केन सूत्रेण तृतीया विभक्तिः कर्तृकरणयोः तृतीया इत्यनेन विभक्तिः अन्यत् सर्वम् अस्तु करणसंज्ञा केन आल् क्वश्चन्स् लीड् फ्रम् देयर् केन सूत्रेण तृतीया विभक्तिः इति चेत् कर्तृकरणयोः तृतीया इत्यनेन तृतीया विभक्तिः कथम् करणत्वम् इति प्रश्ने साधकतमम् करणम् इत्यनेन करणत्वम् कथम् साधकतमम् का अस्ति क्रिया क्रिया एव न दृश्यते इदमस्ति अनुक्रिया काम् क्रियाम् निमित्तीकृत्य करणत्वम् इति प्रश्ने गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका इति उक्त्वा विस्तरेण साध्यम् नास्ति इति गम्यमानायाः साधनक्रियायाः करणत्वम् इति उत्तरम् वाट् इस् द एक्साक्ट् क्वश्चन् बीङ्ग् आस्क्ड् अण्ड् आन्सर् रैट् केन सूत्रेण तृतीया इत्युक्ते बहु सुलभम् कर्तृकरणयोः तृतीया इट् डस् नाट् रिक्वैर् एनी फर्दर् एक्स्प्लेनेशन् यदि कथम् समर्थनीयम् इति चेत् तदा कथम् करणत्वम् कथम् गम्यमानक्रियायाः कारकविभक्तौ प्रयोजकत्वम् इति वक्तव्यम् अग्रे चतुर्थीविभक्तौ आदौ कारकचतुर्थी अस्ति चतुर्थीविभक्तिः कारकविभक्तिः सम्प्रदानकारकस्य विभक्तिः चतुर्थी इति उच्यते तत्र सम्प्रदानसंज्ञा नाम का इति ज्ञातव्यम् यतः आदौ सम्प्रदानसंज्ञा उच्यते चतुर्थी विभक्तिः उच्यते सम्प्रदानसंज्ञा बहुभिः सूत्रैः उच्यते देर् आर् मेनी सूत्रास् विच् गिव् सम्प्रदान सो चतुर्थी इस् वन् विभक्ति वेर् बोत् कारकचतुर्थी अण्ड् उपपदचतुर्थी आर् आल्मोस्ट् ईक्वल् यु हेव् लाट् आफ़् सूत्रास् विच् गिव् सम्प्रदान अण्ड् देर् फोर् इट् लीड्स् टु चतुर्थी And there are many sutras where directly Chaturthi Vibhakti is also mandated. Chaturthi Vibhakti Vishaya Vyakarana Vishesha Bhavah Santi. Adav Karma Sampradana Samya Ischate Karmana Yamabhi Praiti Sa Sampradanam Iti Sampradana Samya Vihayakam Prathamam Sutram Pancha Padani Santi Karmana Yam Abhi Praiti Sa Sampradanam Karakadhikaraha Vidyate दानस्य कर्मणा यम् अभिप्रेति सः सम्प्रदानसमयः स्यात् इति सूत्रार्थः कर्मणा यम् अभिप्रेति क्रिया एण्ड् दर् इस् अ कर्म द उद्देश्य आफ् दट् कर्म फार् हूम् दट् कर्म इस् इण्टेण्डेड् द इण्टेण्डेड् रिसिपियण्ट् आफ् द कर्म इस् काल्ड् सम्प्रदान एण्ड् दिस् केन् हेपन् ओन्लि इन् केस् आफ् अ दानक्रिया वेन् यु आर् गिविङ्ग् सम्थिङ्ग् टु सम्बडि तदैव उद्देश्यत्वम् कर्मणः उद्देश्यत्वम् सम्भवति अत एव दानस्य कर्मणा यम् अभिप्रैति सो दट् the intended person or the intended recipient of the karma pada of dana kriya will get sampradana sampradana. Very easy to understand. Deya dravya uddeshyakam sampradanakam. Deyam is dravyam. Deyam diyate iti deyam. That which is given is deya. Deyam is dravyam. There is some matter which is being given. Tasya uddeshyakam. Intending whom is it being given? That is sampradanam bhavati. Ityarthaha. Sampradana samyayam satyam. चतुर्थी संप्रदाने इति चतुर्थी विभक्ति विधायकम् सूत्रम् always maintain this distinction between सारक विधायकम् सूत्रम् किम् विभक्ति विधायकम् सूत्रम् किम् इति सर्वदा स्मर्तव्यम् द्वितीय विभक्तौ सर्वदा यथा पूर्वम् एकम् उदाहरणम् उक्तम् सारथिः वाहन रथम् ग्रामम् क्रोशम् इत्यादि तत्र सर्वत्र वाहन रथम् ग्रामम् सर्वत्र विभक्ति विधायकम् सूत्रम् किम् इत्युक्ते एकमेव उत्तरम् कर्मणि द्वितीया एकमेव भवति एकमेव एकत्रैव क्रोशम् इत्यत्रैव कालाधनोरत्यन्त संयोगे इति द्वितीया अन्यत्र सर्वत्र विभक्ति विधायकं सूत्रम् एकमेव कर्मणि द्वितीया कर्मसंज्ञा विधायकानि सूत्राणि भिन्नानि एवमत्रापि चतुर्थी विभक्ति विधायकं सूत्रं किम् इति पृष्टे चतुर्थी संप्रदाने इति सूत्रं संप्रदाने चतुर्थी विभक्तिः भवति बहु सुलभम् पदद्वयमस्ति सम्प्रदाने चतुर्थी सूत्रार्थः अपि न दीयते दीक्षितैः सो ओब्वियस् दट् ही डस् नाट् गो टु द पेन् आफ् रैटिङ्ग् अ सूत्रार्थ उदाहरणमस्ति विप्राय गां ददाति राजा विप्राय गां ददाति इत्यस्ति दानक्रिया दानक्रियायां राजा कर्ता क्रियायाः कर्म भवति गौः कर्तुः इच्छितमं कर्म दातुं यदि इच्छिततमस्ति दानक्रियया सम्बन्धुम् इच्छिततमत्वात् गोः कर्मत्वमस्ति कर्मणः उद्देश्यम् टु हूम् इस् द कौ इण्टेण्डेड् और् फोर् हूम् इस् इट् इण्टेण्डेड् इति चेत् विप्राय विप्रशब्दस्य कर्मणायमभिप्रैतिकसम्प्रदानम् इत्यनेन सम्प्रदानत्वम् चतुर्थी सम्प्रदाने इत्यनेन चतुर्थी भक्तिः विप्राय गां ददाति अनभिहिते इत्येव अत्रापि चतुर्थी सम्प्रदाने इति सूत्रेऽपि अनभिहित अधिकारः वर्तते अनभिहिते सम्प्रदाने चतुर्थी विभक्तिः अनभिहिते सम्प्रदाने इति उच्यते अभिहितत्वं कथम् इति प्रश्नः कदा स्यात् सम्प्रदानस्य अभिहितत्वम् इति चेत् पुनः यथा तृतीयकरणे तथा उदाहरणं दीयते दीयते अस्मै दानीयो विप्रः अस्मै दीयते विप्राय दीयते इत्यर्थे अस्मै दीयते इत्यर्थे सम्प्रदानार्थे अनीयप्रत्ययः अस्ति स्नानीयं चूर्णम् इत्यत्र यथा करणार्थे अनीयप्रत्ययः दृष्टः तथा अत्र सम्प्रदानार्थे अनीयप्रत्ययः दीयते अस्मै इति विग्रहे राधातोः अनीयप्रत्यये दानीयः इति रूपं सम्प्रदाने अनीयत् अतः विप्राय दानीयः इति न भवति विप्रः दानीयः विप्रः सम्प्रदानम् इट् इस् द ब्राह्मिन् गौः विप्राय दीयते अतः विप्रः सम्प्रदानम् किन्तु सम्प्रदानस्य अनीयप्रत्ययेन अभिहितत्वात् चतुर्थी विभक्तिः न भवति अधीते प्रातिपदिकार्थे प्रथमा विभक्तिः दानीयो विप्रः अग्रिमम् एकं वार्तिकमस्ति क्रियया यम् अभिप्रैति सोऽपि सम्प्रदानम् सूत्रकारेण किमुक्तम् कर्मणा यम् अभिप्रैति सः सम्प्रदानम् दानक्रियायाः कर्म यदस्ति तस्य उद्देश्यम् सम्प्रदानम् भवति सकर्मकाणाम् धातूनाम् विषये विशिष्य दाधातोः विषये भवति कदाचित् अकर्मकधातुसंयोगेऽपि चतुर्थी विभक्तिः दृश्यते तत्र उच्यते वार्तिककारेण क्रियया यम् अभिप्रैति यम् उद्दिश्य सा क्रिया क्रियते यदर्थं सा क्रिया क्रियते यम् उद्दिश्य क्रियायाः निर्वृत्तिः भवति सः अपि सम्प्रदानम् भवति तस्यापि सम्प्रदानसंज्ञा भवति अकर्मकक्रियोद्देश्यमपि सम्प्रदानम् भवति इति वार्तिकस्य अर्थः पत्ये चेते इति उदाहरणम् காஜித் சத்தியே சேத்தே சயனம் அத்த கிரியா சயனக்ரியாயாக உத்தேசியம் பவதி பதி அகர்மக கிரியா பவதி சயனக்ரியா ஸ்லீப் ஃபார் ஹர் ஹஸ்பண்ட் இத்யர்த்தே சயனக்ரியாயா அஸ்தி தஸ்ய உத்தேசியம் பவதி பதி கிம் நிமித்தம் கிம் கம் உத்திஷ்ய சயனக்ரியா க்ரியதே இதி சேத் பத்திம் உத்திஷ்ய இத்யஸ்தி அத்த கிரியாயம் அபிப்ரைதி கிரியாயாக உத்தேசியம் பவதி பதி தஸ்ய சம்ப்ரதானத்வம் அனேன வார்த்திகேன சம்ப்ரதானத்வே சதி சதுர்த்தி சம்பிரதானே இது சூத்திரேண சதுர்த்தி விபக்தி பரம் வார்த்திகம் அஸ்தி வேதவிஷயகம் ஏவ கர்மண கரண சம்யா சம்பிரதானச்ச கர்ம சம்யா இது உச்சது. This is a very limited, this vartika has very limited application. Yadudhatu vishayameva sandhasameva. It applies only to the case of Yadudhatu and it applies only in the Vedas. Veda vishaye eva asya prayogaha pravrittihi evam Yadudhatu vishaye eva. Yadudhatu deva puja sangati karana daneshu. It is said. Yadate ityasya அர்த்தாக தேவ பூஜா சங்கதி கரணம் தானம் இது த்ரய அர்த்தாக சந்தி யதா தானார்த்தே யஜதாதோஹ பிரயோக இப்ப சம்பிரதான சோ ஃபார் இஸ் அசோசியேட்டட் ஒன்லி வித் தானம் அதாவது தான தானார்த்தகஹ யஜதாதுஹ யதா அஸ்தி தஸ்ய பிரயோகே கர்மணஹ கரண சம்யா சம்பிரதானஸ்ய கர்ம சம்யா பவதி வஸ்துதஹ யத் கர்ம பதம் தஸ்ய கரணத்வம் பவதி வஸ்துதஹ யத் சம்பிரதானம் தஸ்ய கர்ம சம்யா பவதி இது உச்சதே. உதாரணம் கிம் பசுனா ருத்ரம் யதபே இத்யஸ்தி ஓர்த்தஹ பசும் ருத்ராய ததாதி இத்யர்த்தஹ இத்யபி தத்தம் ருத்ராய பசும் ததாதி ஹி கிவ்ஸ் அ பசு அஸ் அ சாக்ரிஃபைஸ் டு ருத்ரம். கர்ம பதம் கிம் பசு பசும் ததாதி பசு கர்ம கஸ்மை ததாதி ருத்ராய ததாதி ருத்ரஹ சம்பிரதானம் கிமுக்தம் கர்மணஹ கரண சம்யா The karma which is pashu will get karana samya. Karanatva tritiyaya bhakti hi pashuna iti bhavati. Sampradana chacha karma samya iti uttam. Rudra sampradanam. Tasya karma samyayam satyam rudram iti bhavati. Ataha pashuna rudram yajate iti prayogaha. Kortaha pashum rudraya dadati ityarthaha. Very special prayoga and this is only in the Veda. Vedeva etadrishaha prayogaha drishyate. தரத்தம் இதன் வார்த்திகம் நிர்மிதம் பிரஸ்னஹ அஸ்தி வா தானியஹ விப்ரஹ கஹ பிரஸ்னஹ சதுர்த்தி அஸ்தி கிந்து வாக்கியம் நாஸ்தி தீயதே அஸ்மை இது தானியஹ இத்யஸ்ய விக்ரஹ வாக்கியம் தானியஹ விக்ரஹ இத்யேவ உதாஹரணம் உதாஹரணம் இஸ் ஓன்லி தானியஹ விக்ரஹ தானியம் சூர்ணம் தானியஹ இத்யஸ்ய கோர்த்தஹ இது விவரணார்த்தம் விக்ரஹ வாக்கியம் தீயதே தீயதே அஸ்மை இது தானியஹ அதாவது சீதாயாஹ பதிஹ சீதாபதிஹ சமாசஸ்ய விக்ரஹ ததைவ ச பிரதந்தஸ்ய விக்ரஹ பவதி தீயதே அஸ்மை கிமர்த்தம் விக்ரஹ தீயதே அஸ்மை இது சம்பிரதானம் அநியர் பிரத்யேன உச்சதே அநியர் பிரத்யஹ சம்பிரதானார்த்தே இது தியோதயதும் விக்ரஹே தீயதே அஸ்மை இது சதுர்த்தி வஸ்துதஹ உதாரணம் தானியஹ விக்ரஹ தத்ர சதுர்த்தி ந த்ருஷ்யதே அபிஹிதத்வாத். Any other questions? சம்பிரதான சம்யா விதாயகம் பிரதமம் சூத்திரமாசீத் கர்மணாயமபிப்ரைதி சம்பிரதானம் த்விதீயம் அஸ்தி ருச்யர்த்தானாம் ஸ்ரீயமாணஹ பதத்வயம் ருச்யர்த்தானாம் ஸ்ரீயமாணஹ அஸ்தி காரகே இத்யதிகாரஹ கர்மணாயமபிப்ரைதி சம்பிரதானம் இதி சூத்ராத் संप्रदानम् इति अनुवर्तते। इत्यर्थानां धातूनां प्रयोगे क्रियमाणः अर्थः संप्रदानं स्यात् इति सूत्रस्य अर्थः। प्रश्नः अस्ति पत्ये इत्यत्र किमर्थं तृतीया न इति, केन तृतीया, किं निमित्तं तृतीया भक्तिः भवेत्। प्रधाने इत्यनेन तृतीया भवितुमर्हति, पत्या सह शेते इति विवक्षा भिन्ना, डिपेण्डिङ्ग् आन् वाट् यु वाण्ट् टु से। पत्या सह शेते, पत्या शेते इत्यस्य, पत्ये शेते इत्यस्य च विवक्षा भिन्ना, उभे उभावपि प्रयोगौ भवतः। बोत् प्रयोगा दर्जे आर् करेक्ट्, डिपेण्ड्स् आन् वाट् हेड् यु वाण्टिङ्ग् टु से, वाट् इस् द इण्टेन्शन्। सर्वत्र सर्वदा विवक्षातकारकाणि भवन्ति। Depending on your vivaksha, you could use. There is nothing wrong. Tritiya vipatteh prayogahapi bhavitum arhati. Ka vivaksha iti drashtavyam tavate. So, prityarthanam dhatunam prayoge, priyamanah arthaha sampradanam syat. Prityarthaha namakaha iti prashtaha rucha dhatuku, rucha deepkau abhipulitau cha iti dhatuku. ऋषधातु इज यूज्ड इन टू सेंसेस, दीप्ति टू शाइन इत्यर्थे अस्ति, अभिप्रीतौ एंड टू लाइक इत्यर्थे अपि अस्ति। तत्र दीप्ति यः न विवक्षितम्, ऋच्यर्थः नाम कः। ऋषधातु इज यूज्ड इन बोथ सेंसेस, धातोः अर्थद्वयं विद्यते। ऋच्यर्थः इत्यनेन अस्मिन् सूत्रे किं कः अर्थः स्वीक्रियते इति प्रश्ने दीप्ति न स्वीक्रियते। Obviously the meaning of the shine is not taken in the sutra. किमर्थं प्रियमाणः इत्यनेन विरोधात्, इट् डस् नाट् गेट् लिङ्क्स् टु प्रियमाणः। इफ् यु टेक् दीप्ति आर् शैनिङ्ग् एस् द मीनिङ्ग् आफ् रिचर्थ, देर् इस् नो प्रियमाण, इट् के नाट् कनेक्टेड् टु प्रियमाण। अतः अभिप्रीतिः टु लैक् इत्यर्थे एव इत्यर्थः एव स्वीक्रियते अस्य रुच्यर्थः इत्यनेन। रोचते इत्यस्य हि लैक्स् इट् आर् हि इस् प्लीस्ड् बै इट् इत्यर्थः। अत एव आदित्यो रोचते दिक्षु इत्यत्र दीप्त्यर्थे सम्प्रदानसंज्ञा न भवति। आदित्यः दिक्षु रोचते, दिक्षु शोभते, दिक्षु प्रकाशते इत्यर्थः। हि शैन्स् इन् आल् डैरेक्षन्स् इत्यर्थे ऋषस्थानां प्रीयमाणः इत्यस्य प्रयोगः न भवति। यत्र अभिप्रीत्यर्थे ऋषधातुः तत्रैव अस्य प्रयोगः। हरये भक्तिः रोचते इति प्रयोगः, हरये भक्तिः रोचते। मीनिङ्ग् इस् ऐ मीन् टु हाव् अ सुपरफिशियल् मीनिङ्ग्, इट् मीन्स् हरि लैक् भक्ति और् हरि इस् प्लीस्ड् बै भक्ति इत्यर्थः। प्रियमाणः, ही हु इस् प्लीस्ड् बै, तस्य हरेः सम्प्रदानसंज्ञा भवति इत्यर्थानां प्रियमाणः इत्यनेन। सो ट्रान्स्लेटिङ्ग् इट् वेरि सिम्प्लि, वि पुट् इट् अस् हरि लैक् भक्ति और् हरि इस् प्लीस्ड् बै भक्ति। किन्तु वस्तुतः कः अर्थः इति चेत् अन्यकर्तृकः अभिलाषः रुचिः। वाट् एक्साक्ट्लि इस् रुचि, इस् ट्रैङ्ग् टु डिफैन् रुचि। रुचिः नाम कोऽर्थः अन्यकर्तृकः अभिलाषः। अभिलाष इस् अ डिसैर् और् लैकिङ्ग्। But the liking here is not produced by Hari. I mean, when you say it in English, you say Hari likes bhakti. Or say when you say Balakaya Modakam Rochate, you say the boy likes sweets. Okay? But it is not as simple as that, and the translation is also not accurate. So when we say Rochate, who is the karta is the prashna. And it's the question, who the ruchi is the kriyayaha, karta kaha is the prashna. अन्यकर्तृकः अभिलाषः रुचिः। रुचि इस् टेक् टु बि अ लैकिङ्ग् इन् वन् पर्सन्, इट् इस् इन्ड्यूस्ड् बै समथिङ्ग् एल्स्। मीन्स् इफ् ऐ लैक् समथिङ्ग्, से ऐ लैक् अ फ्लवर्, तदा किं भवति, अहं कर्त्री, ऐ एम् डूयिङ्ग् द लैकिङ्ग्, सो ऐ एम् द कर्त्री, दट् इस् द इम्प्रेशन् इस् इस् कन्वेड् इन् इङ्ग्लिश्। किन्तु मह्यं पुष्पं रोचते इति यदि प्रयोगः, तदा किमस्ति, मयि प्रीतिः जायते, पुष्पविषये मयि प्रीतिः जायते, सत्यं। किन्तु Kartrapadam bhavati pushpam. The flower induces a liking in me. It is not that I like the flower by myself. The flower is inducing me to like it. Saha vivaksha atra. Anya kartrukaha abhilashaha ruchihi. Atayeva atra. Harinishtha priteh. Bhaktihi kartri. Kartrupadam kim atra iti pashyamashyate. Bhaktihi ityeva kartrupadam. Bhaktihi rosate. Bhakti is liked by Hari. So bhakti or devotion, it induces priti, which is liking in Hari. Harinishthaya pritihi katra bhaktihi kartri. Bhaktihi svavishayam pritim harau janayati. It causes Hari to like itself. Svavishayam pritim, that is a liking for itself, harau janayati, it induces in Hari. Ataya harihi priyamanaha. Hari is pleased. Karmani prayogaha priyamanaha iti. Saha, he does not do the liking. Saha karta nasti. Vastataha karmasvam syat. Bhaktigata vyapara prayojya pritya shayatvat. Bhakti hi kartri iti uktam. Kartranishtha vyapara prayojya khalashayas karma. Karmanaha kim lakshanam. कर्तृव्यापारजन्यफलाश्रयः कर्त्री नाम भक्तिः तद्गतः यः व्यापारः तेन जन्या या प्रीतिः प्रीतिः एव फलम् द फल ऑफ दिस रुचि इज प्रीति सो इन दिस लाइकिंग तस्य आश्रयः हरिः हरेः कर्मत्वं प्राप्तम् हरि इज एक्चुअली द कर्मपद इन दिस सिचुएशन शुड हैव बीन द कर्मपद भक्ति मेक हरि टू लाइक हिम इत्यर्थे हरेः कर्मत्वं प्राप्तं तदपवादत्वेन संप्रदानसंज्ञा उच्यते कर्मसंज्ञायाः अपवादभूता इयं संप्रदानसंज्ञा इत्यर्थानां प्रयोगे क्रियमाणोऽर्थः संप्रदानसंज्ञः भवति हरये रोचते भक्तिः इति उदाहरणम् चतुर्थी तु चतुर्थी संप्रदाने इत्यनेनैव द चतुर्थी विभक्ति इस् सूत्र इस् नाट् डिफरेण्ट् It's only the Sampradana Samya Sutra which is different. Ruchi Abhilasha Yohu Kaha Bhedaha Iti Prashnaha. Now there is liking itself. Paradvayam Asti. Rochate Abhilashati. Abhilashati Ityasya he wants. Ityasya Rochate Ityasya Asti Sahitla Asthaha. Kintu Bhedaha Asti. Prityashraya Kartrakaha Kinchidrishayakaha Ichha Visheshaha Abhilashaha. Abhilasha is to like something. Both Ruchi and Abhilasha is to like something. Okay. Hindu, Prityashtaya Kartrukaha, Kinchit Vishayakaha, Ichha Visheshaha, Abhilashaha. Which means the Karta himself likes. Udaharanam Pashyamashche Prastam Bhavati. Balaha Khanda Sharkaram Abhilashati. See, the boy likes Khanda Sharkara. तत्र कः अर्थः बालः कर्ता अभिलषतेः कर्ता भवति बालः स एव प्रीतेः आश्रयः हि हिमसेल्फ इज द आश्रय फॉर द प्रीति ओके एंड दैट इज वाई बालः खंडशर्कराम् अभिलषति इत्यत्र शर्करा खंडशर्करा इत्यस्य कर्मत्वं बालस्य कर्तृत्वं प्रीत्याश्रय कर्तृकः प्रीतेः कः आश्रयः बालः तत्कर्तृकः इच्छा विशेषः सो हि लाइक्स और हि डिसाइड्स खंडशर्करा इति प्रयोगः बालः खण्डशर्कराम् अभिलषति बालः तत्र कर्तृपदं भवति रुचिः नाम का इति चेत् प्रीत्याश्रयापेक्षया यद् अन्यत् तत्कर्तृक अभिलाषः रुचिः सो देयर इज अ प्रीत्याश्रय अगेन इन बोथ केसेस देयर इज समबडी इन हूम लाइकिंग इज देयर सो व्हेन दैट समबडी इटसेल्फ इज द कर्ता इट बिकम्स अभिलाषा लाइक बालः खण्डशर्कराम् अभिलषति यद् अन्यत् तत्कर्तृक अभिलाषः रुचिः वेन् देयर इज सम अदर कर्ता हु इज इंड्यूसिंग दट लाइकिंग इन दिस पर्सन तदा रुचिः इति उच्यते कर्ता भिन्नः प्रीत्याश्रयः भिन्नः सो दट विच वाज कर्मपद इन अभिलाषा बिकम्स कर्तृपद इन रुचि एंड दट विच वाज कर्तृपद देयर बिकम्स संप्रदान हियर बालाय खंड शर्करा रोचते अत्र खंडशर्करा कर्त्री बालः संप्रदानम् सो दैट इज देयर इज अ डिफरेंस बिटवीन इवन दो वी ट्रांसलेट बोथ एज द सेम इन इंग्लिश देयर इज अ डिफरेंस इन विवक्षा दैट इज वाई देयर इज अ डिफरेंस इन विभक्ति इन कारक एंड एवरीथिंग अन्यदपि अस्ति प्री धातुरेव अस्ति रुच्यर्थानां क्रियमाणः इत्यस्ति प्री इति धातुरेव अस्ति तस्य प्रयोगे सम्प्रदानसंज्ञा भवति वा इति प्रश्ने न भवति इति उत्तरम् भक्तिः हरिं प्रीणयति भक्ति प्लीसस् हरि इत्यस्ति हरये प्रीणयति इति न भवति हरिं प्रीणयति इति कर्मत्वमेव भवति अर्थात् सम्प्रदानसंज्ञा नास्ति रोचते इत्यत्र कर्मसंज्ञां बाधित्वा सम्प्रदानत्वम् इति उक्तम् अत्र तु न भवति कथं ज्ञायते न भवति इति प्रश्ने क्रियमाणः इति कर्मणि सानस्प्रयोगबलेन सूत्रे एव रुच्यर्थानां क्रियमाणः इत्यत्र क्रियमाणपदम् अस्ति क्रियमाण इत्यत्र कर्मणि शानच् प्रत्ययः स्त्री धातोः शानच् क्रियमाण डबल डिस्टेंस इज डिराइव्ड फ्रॉम स्त्री धातु एंड कर्मणि शानच् कर्मणि इज इंडिकेटेड बाय द यक् एंड शानच् प्रत्ययः अस्ति तेन किं ज्ञायते स्त्री धातोः योगे अस्य सूत्रस्य अप्रवृत्तिः दिस् सूत्र विल नॉट अप्लाई इन केस ऑफ स्त्री द वर्ब स्त्री इति ज्ञायते कथम् इति चेत् कर्मणि शानच् प्रत्ययः कृतः यदि स्त्री धातोः कर्मणः सम्प्रदानत्वं स्यात् इफ् दिस् सूत्र वुड् अप्लै द कर्म वुड् गेट् सम्प्रदान संज्ञा एण्ड् देर् वुड् नाट् बि कर्मणि शानच् सिन्स् देर् इस् नो कर्मपद शानच् प्रत्ययः एव न भवति स्म अन्यथा स्त्री धातु कर्मणः सम्प्रदानत्वे इफ् द कर्म आफ् स्त्री धातु हेड् गाट् सम्प्रदानत्व There would not have been karmani shanach. Shanach pratyaha eva na bhavachitma. Shanach pratyasya prayogaha kritaha paninina ityanenaya jnayate. Priyamanaha pridhatohu yoge asti sutrasya pravrtihi nasti iti. Ata eva bhaktihi harim prinayati ityatra sampradanatvam nasti. Ayin tachana prasna asya tutsara mama asti prasna ha. Vityarthanam iti uchyate. रुच्यर्थानां धातूनां प्रयोगे इत्यपि अस्ति बट् आल्वेस् द एक्साम्पल् इस् गिवन् इस् ओन्ली वन् धातु विच् इस् रोचते तं धातुं विना अन्यस्य कस्य धातोः विषये अस्य सूत्रस्य प्रवृत्तिः तद् डस् नाट् से रुच् धातोः प्रयोगे चेत् रुच्यर्थानां प्रयोगे रुच्यर्थानां धातूनां के रुच्यर्थाः धातवः विच् आर् द अदर् धातुस् विच् केन् बि यूस्ड् इन् द सेम् सेन्स् आफ् रुचि is a question which I myself have, so do not ask that question, I do not know. I am trying to find out which are the other dhatus with which you can use this modate iti nasti. Modate is tripti, it is not ruchi. हरिः भक्त्या मोदते भक्तिः करणं हरिः कर्ता मोदते हरिः इस् प्लीस् वेद् सो तत्र तादृशः प्रयोगः नास्ति सो फैण्ड् औट् इफ् एनिबडि केन् फैण्ड् औट् एण्ड् इफ् यु हेव् समबडि एल्स् इन् यु आस् ऐड् आल्सो आस्क् मै टीचर्स् ऐ नाट् रुच्यर्थाः धातवः के रिच् अदर् धातु इस् वन् मोर् धातु विच् whom we can use this prayoga and try to find out. If I find out, I'll let you know. Kriyamana kim iti prashna. Rucyarthanam prayoga kriyamana arthaha sampradanam bhavati iti uktam. It is a sarve sam karakanam sampradanatum na bhavati. Any karaka in case of रुच्यर्थ धातु विल् नाट् गेट् कर्म सम्प्रदानसंज्ञा क्रियमाणः दट् विच् इस् क्रियमाण इट् प्लीस् तस्मिन् एव अर्थे भवति सिम्पल् देवदत्ताय रोदते मोदकः पथि पथि इत्यस्ति पथिं शब्दस्य अधिकरणत्वं न तु क्रियमाणत्वम् इट् इस् नाट् द पथि इत्यस्य मार्गे इत्यर्थः द पात् इस् नाट् बीङ्ग् प्लीस्ड् देवदत्ताय रोदते मोदकः सो देवदत्ता इस् प्लीस्ड् बै मोदक अतः देवदत्तस्य सम्प्रदानसंज्ञा पथिन् इत्यस्य तु पथिन् शब्दस्य सम्प्रदानसंज्ञा नास्ति क्रियमाणत्वा भावात् उच्यते दोष तुष्यति हरिः भक्त्या तुष्यति इत्येव प्रयोगः हरये भक्तिः तुष्यति इति नास्ति भक्तिः हरिं तोषयति
हरिः भक्त्या तुष्यति इत्येव प्रयोगः। अस्तु इत्यर्थानां क्रियमाणः पथि इत्यस्य मार्गे इत्यर्थः आन् द स्ट्रीट् आन् द वे इत्यर्थः। So he likes having sweets on the way itself. Devadattaya rochate modakah pathi. When he is travelling, he likes having sweets. Okay. Anurajyate drashtavyam. भक्तिः अनुरज्यते प्रयोगस्य मम परिचयः नास्ति कथं चिन्तयन्तु अग्रिमं सूत्रमस्ति श्लाघन् हुंस्था शपान् नीच्यमानः पुनः सम्प्रदानसमयाविधायकमेव सूत्रं श्लाघ नुङ् स्था शपान् नीच्यमानः सम्प्रदानम् इति वर्तते। एषां प्रयोगे बोधयितुम् इष्टः सम्प्रदानं स्यात्। एषां धातूनां प्रयोगे चत्वारः धातवः दत्तास्सन्ति। एषां प्रयोगे नीच्यमानः ज्ञापयितुम् इच्छति नाम बोधयितुम् इच्छति सः बोधयितुम् इष्टः। सो दीस् धातूस् आर् यूस्ड् इन् अ स्पेशल् सेन्स् आफ् कन्वेयिङ्ग् समथिङ्ग् इत्यस्य तदर्थं यदा एषां प्रयोगः भवति तदा यः बोधयितुम् इष्टः ही टु हूम् समथिङ्ग् इस् बीङ्ग् कन्वेड् तस्य सम्प्रदानसंज्ञा भवति सूत्रार्थः। चत्वारः धातवः सन्ति श्लाघ्र कथने नुङ् अपनयने ष्ठा लतिनिवृत्तौ शप उपालम्भे इति चत्वारः धातवः। श्लाघ्र श्लाघते कथनं नाम सेल्फ् प्रेस् प्रेसिङ्ग् वन् सेल्फ् इस् काल्ड् श्लाघन और् कथन or bragging or pride, that is called shlaghana. Nung apanayane, hnute ityasi sukhaid, ityasaha. Shtha latinivrattav, shishthati. So, stop moving is to stand. Shapa upalambhe, shapate ityasi to scold or to curse somebody, ityasaha. So, these are all very special prayogas. Gopi, marat, krishnaya, श्लाघते स्नुते तिष्ठते शपते वा इति दीक्षितानाम् उदाहरणम्। गोपी स्मरात् कृष्णाय श्लाघते कः अर्थः मन्मथपीडावशात् नाम स्मरात् स्मरः नाम मन्मथः मन्मथपीडावशात् गोपी श्लाघते श्लाघते नाम आत्मस्तुतिं करोति शी प्रेजस् हर् सेल्फ् शी प्रेजस् हर् ओन् क्वालिटी किमर्थं विरहवेदनां कृष्णं बोधयति। By praising herself, she is just trying to seek Krishna's attention. She wants to gain Krishna's attention and tell him that she wants him. Katham bodhyate taya atma shlaghanaya. So she tries to attract his attention by praising herself. Gopi smarat krishnaya shlaghate atrasa svasya asham krishnam bodhayitum icchati. She desires to communicate her desire to Krishna नीच्यमानः इत्यस्य नीच्यमानः कृष्णः तस्मात् कृष्णस्य सम्प्रदानसंज्ञा भवति इत्यर्थः। गोपी स्मरात् कृष्णाय स्मृते कपत्नि अपनयनेन नु अपनयने अपनयन इस् टु हैड् सम्बडि आर् टु टेक् अवे सम्बडि। सो शी ट्रैस् टु सेण्ड् अवे आल् द अदर् गोपीस् एण्ड् शी ट्रैस् टु कीप् कृष्णा टु हर्सेल्फ्। सपत्नि अपनयनेन सपत्नयः एक्चुलि इट् मीन्स् अ को वैफ् गोपीनां विषये अन्ये ये गोप्यः सन्ति तेषाम् अपनयनेन सो शी हैड्स् देम् आर् ट्रैस् टु सेण्ड् देम् अवे हृते इत्यस्य टु हैड् to prevent them from being seen by Krishna. Sapatninam apanayanena वाशयम कृष्णम बोधयति शी वांट्स टू कन्वे हर डिजायर टू कृष्णा इति अर्थे अत्रापि कृष्णः दीप्यमानः तस्मात् तस्य चतुर्थी विभक्तिः गोपी स्मरात कृष्णाय तिष्ठते तिष्ठते इति आत्मनेपद प्रयोगः विशेषः प्रकाशनस्य इन दिस पर्टिक्युलर सेंस देयर इज आत्मनेपद गिवन बाय अ पर्टिक्युलर सूत्र ओके सो गंतव्यम इत्युक्तेति स्थित्या शी सेज आई विल गो बट शी स्टिल स्टेज बैक गच्छामि इत्युक्त्वापि सः तिष्ठते आशयं कृष्णं बोधयति So again, everything is meant to convey something. Tatra Krishnaha Yapaniyaha Tataha Tatya Sampradana Samya. Chaturthi Vibhaktishcha Bhavati. Krishnaya Tishthate. So she stays back to convey something to Krishna. Gopi Smaran Krishnaya Shapate. Upalambhena Smashayam Krishnam Bodhayati. So she curses or she scolds Krishna. Really she wants to tell that she likes him or she loves him. तथापि उपालम्भेन कृष्णं बोधयति स्मरात् कृष्णाय शपते तो सर्वत्र गीप्यमानः अर्थः व्हेन दे आर यूज्ड इन दीस धातुस आर दे यूज्ड टू कन्वे समथिंग टू समबडी तदा गीप्यमानः अर्थः संप्रदान सम्यकः भवति यदा तु शपति इति टू कर्स समबडी फॉर एग्जांपल कश्चन दुर्वासाः शापं ददाति इत्यर्थः तदा तु कर्म एव भवति शकुंतलाम शपति दुर्वासाः शकुंतलाम शपति ही कर्सस हर इट्स अ डायरेक्ट कर्स इत्यर्थे तदा तु संप्रदानत्वं न भवति यदा दीप्यमानत्वम् अस्ति तत्रैव संप्रदानत्वम् दीप्यमानः किं देवदत्ताय श्लाघते पथि ऑन द वे ही फ्रेजेस हरसेल्फ आत्मश्लाघनं करोति देवदत्तार्थम् तो यह दीप्यमानः देवदत्तः तस्यैव संप्रदानत्वं भवति तु अथः पथिं शब्दस्य संप्रदानत्वं नास्ति देवदत्ताय श्लाघते पथि एनी क्वेश्चन संप्रदानसंज्ञाविधायकम् अग्रिमं सूत्रमस्ति धारे उत्तमनः धारेः उत्तमनः इति पदद्वयं संप्रदानम् इति अनुवर्तते धारयतेः प्रयोगे उत्तमनः उक्तसंज्ञः स्यात् धारि धृङ् अवस्थाने धातोः निदन्तप्रयोगः धारयति इति धारयति इत्यस्य ओ ओ डब्ल्यू ई He owes me 100 rupees. Dharayati ityasya prayogaha. Uttamananaha namakaha iti prashtaha. Uttama rinaha iti chedaha. Rinam namakim iti chedaha. Anyaswamikam dravyam. Niyatakale punararpana buddhya grihitam rinam iti chedaha. Rinam nama loan. Saharthaha anyaswamikam dravyam. Money or something. Any matter which belongs to somebody else, niyatakale punarakpana buddhyam grihitam. It's been taken with the intention of returning in a particular time. That is called a loan of something. Tatra rinasya grihita adhamananaha. He who takes a loan is called adhamanana. Rinasya arpayita dhanaswami uttamananaha. He who gives a loan, he who lends is called धारेः उत्तमर्णः धारयतेः प्रयोगे उत्तमर्णः संप्रदान सम्यकः भवति सो द उत्तमर्ण दट् इस् द लेण्डर् ही हू हेस् गिवन् द लोन् विल् गेट् संप्रदान सम्यक् किमुदाहरणम् देवदत्तः यज्ञदत्ताय शतं धारयति देवदत्त ओस् 100 रुपीस् टु यज्ञदत्त इट् इस् हेस् टेकन् 100 फ्रम् यज्ञदत्त विल् हेस् टु गिव् बेक् दट् 100 ओके तदा किं कः अधमर्णः देवदत्तः अधमर्णः बिकास् हि हस् टेकन् द लोन् उत्तमर्णः भवति यज्ञदत्तः अतः तस्य सम्प्रदानत्वे यज्ञदत्ताय शतं धारयति हि ओस् 100 रुपीस् टु यज्ञदत्त इति उदाहरणम् उपकार इस् नाट् ऋण ऐ मीन् इट् इस् we use Runa and Upakara in terms, but Runa technically is a loan.
Okay.
So we also treat any help as a loan, meaning we intend to help them back whenever it is possible. Kintu runasya vastutaha arthaha etadeva. Pratyarpana buddhya yad grihitam tadeva vinam bhavati. So this is an example of devatamanaha. Devatamanaha yajyanuttaya shatam dharayati. The example given by Dikshita is a very beautiful example. It gives an insight into the kind of thinking which goes. A very typical Indian thinking or philosophical thinking. Harihi bhaktaya moksham dharayati. Hari, the Lord owes moksha to the devotee. Kimuchyate yadichetu. Pujayan hi bhaktaha surati dalari dravyam prayachati. Whenever a bhakta worships with two bhakti, he gives some dravya to Hari. Say it may be a tulasi dala, it might be some tiyastha or something. Patram pushpam phalam toyam yatkinchit dadati. Satya grinham tushto harihi. Hari takes it, is happy. Tat pratya dravyam mokshadanena nishkrinati. Hari treats it as a loan taken from a bhakta. He has to give it back. How does he give it back? He has only one thing to give it back. He cannot give back the same dravya. So he treats moksha as the runa nirimukti. Hari thinks that he himself is under loan. So to give back or to free himself from that loan, he gives moksha. That is the belief of Quran. There is a shloka, a very nice shloka. Soyamva patramva yadva kinchit samarpitam bhaktya. Bhaktya yat kinchit samarpitam haraye. Tad rinam matva devaha. So the deva treats it as a loan which he is taking from the bhakta. Nishreyasa meva nishkriyam manute. Nishreyasa is salvation, moksham. He thinks that it is moksha which will relieve him of that loan. He has taken something from that bhakta. So how does he free himself from that loan? He gives salvation. Atayeva bhaktaya moksham dharayati. He treats bhakta as uttamarana and himself as adhamarana. And he owes him moksha. It is not that, he has to give moksha. Yadasa bhaktihi vastutaha bhavati, tada moksham tena datavyam eva bhavati. He is bound to grant salvation. Bhaktasya rinadatrasvena uttamaranatva. So bhakta is the uttamarana here because he is giving whatever the thing which he is offering something through bhakti. अतः संप्रदानत्वं हरिः भक्ताय मोक्षं धारयति. उदाहरणम् अफकोर्स इट कैन बी यूज्ड इन अदर केसेस एज आई टोल्ड, किंतु इदं बहु उत्तमं उदाहरणम्. इन क्वेश्चंस उत्तमर्णः किं देवदत्ताय शतं धारयति ग्रामे. आल् इस् अ वेरि सिम्पल् एक्साम्पल्. ग्रामशब्दस्य सम्प्रदानत्वं नास्ति. देवदत्ता हि ओस् देवदत्ता 100 रुपीस् इन् द विलेज्. तत्र ग्रामस्य अधिकरणत्वं न तु सम्प्रदानत्वं. यः उत्तमर्णः तस्यैव सम्प्रदानत्वं भवति, न तु अन्येषां कारकाणाम्. देवदत्ताय शतं धारयति ग्रामे. So this is it. There are still other sutras that give sampradana samya, and then we have Upakara Chaturthi. We'll see those tomorrow. Shenakshara samam nayam hi gamya maheshwara krishnam yasaranam roktam tasmai paninaye namaha. Akhyakaram vararuchim bhashyakaram patanjalim paninim sutrakaram chakranat osmim nitrayam. मुनित्रयम् नमस्कृत्य सदुक्तीश्वरि हास्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते.